पितुन्नस्तोषम् महो धर्माणन्तविषेम् यस्य त्रितो व्योजसा वृत्रम् विपर्वमर्दयत स्वादो पितो मधो पितो भजन्त्वा बभ्रमहे अस्माकमभिता भव उपनः पितपाचर शिव शिवाभिरोतिभिः मजो भुरद्विषेण्यः सखा सुषेभो अद्वजाः तवत्ये पितो रसा रजांसि न विष्ठिताः दिवि वाता इव श्रिताः तवत्ये पितो ददतस्तव स्वादिष्ठते पितो प्रस्वाद्मानो रसानाम् तिग्रीवा इवेरते त्वे पितो महानाम् देवानाम् मनो हितम् अकाचारुकेतुना तव हिमवसावधीत यदो पितो अजगन्निव स्वपर्वतानाम् अत्रा चिन्नामधो पितारम् भक्षाजगम्याः यदपामोषधीनाम् परिंशमा ऋषामहे वाता पेपीव इद्भव यत्ते सोमगवा शिरोजवा शिरो भजामहे वाता पेपीव इद्भव करम्भ ओषधे भव पीबो वृक्क उदारथिः वाता पेपीव इद्भव तन्त्वा भजम् पितो वचो भर्गवो न हव्या सुशोदिमा देवेभ्यस्त्वा सधमादमस्मभ्यन्त्वा सधमादम्